अथ चतुश्चत्वारिंशत् सर्गः। सन्दिष्टो राक्षसेन्द्रेण प्रहस्तस्य सुतो बली जम्बुमाली महादंष्ट्रो निर्जगाम धनुर्धरः। सन्दिष्टो राक्षसेन्द्रेण प्रहस्तस्य सुतो बली जम्बुमाली महादंष्ट्रो निर्जगाम धनुर्धरः रक्तमाल्याम्बरधरः सृग्वीरुचिरकुण्डलः महान् विवृत्तनयनः चण्डः समरदुर्जयः धनुश्चक्रधनुः प्रख्यम् महद्रुचिरसायकम् विस्फारयानो वेगेन वज्रासनिसमस्वनम् घोषेण धनुषो महतादिशः प्रदिशश्च नभश्चैव सहसा समपूर्यत रथेन खरयुक्तेन तमागतमुदीक्ष्य सः हनुमान् वेगसम्पन्नो जहर्ष च ननाद च तं तोरणविटङ्कस्थं हनुमन्तं महाकपिं जम्बुमाली महाबाहुः विव्याधनिशितैश्चरैः अर्धचन्द्रेण वदने शिरस्येकेन कर्णिना बाह्वोर्विव्याधनाराचैः दशभिस्तं कपीश्वरं तस्य तच्छुशुभेताम्रं शरेणाभिहतं मुखम् शरदीवाम्बुजं फुल्लं विद्धं भास्कररश्मिना तत्तस्य रक्तं रक्तेन रञ्जितं सुशुभे मुखं यथाकाशे महापद्मं सिक्तं चन्दनबिन्दुभिः चुकोपबाणाभिहतो राक्षसस्य महाकपिः ततः पार्श्वेति विपुलां महतीं शिलां तरसा तां समुत्पाट्य चिक्षेपबलवद्बली हृदयसेभिर्क्रुद्धः ताडयामास राक्षसः विपन्नं कर्म तद्दृष्ट्वा हनुमान् चण्डविक्रमः सालं विपुलमुत्पाट्य भ्रामयामास वीर्यवान् भ्रामयन्तं कपिं दृष्ट्वा वानरं पञ्चभिर्भुजे उरस्येकेन बाणेन दशभिस्तु स्तनान्तरे सशरैः पूरिततनुः क्रोधेन महताव्रतः तमेव परिहं गृह्य भ्रामयामास वेगतः अतिवेगोतिवेगेन भ्रामयित्वा बलोत्कटः परिहं पातयामास जम्बुमालेर्महोरसि तस्य चैव शिरो नास्ति न बाहु न च जानुनी न धनुर्नरधो नाश्वाः तत्रादृश्यन्त नेषवः। महाबलः पपात निहतो भूमौ चूर्णिताङ्गविभूषणः जम्बुमालिञ्च निहतं किङ्करांश्च महाबलान् चुक्रोध रावण श्रुत्वा कोपसंरक्तलोचनः सरोषसंवर्तितताम्रलोचनः निहते महाबले अमात्यपुत्रानतिवीर्यविक्रमान् समादिदेशासु निशाचरेश्वरः सरोषसंवर्तितताम्रलोचनः प्रहस्तपुत्रे निहते महाबले अमात्यपुत्रानतिवीर्यविक्रमान् समादिदेशासु निशाचरेश्वरः। इत्यार्षे श्रीमद् रामायणे सुन्दरकाण्डे चतुश्चत्वारिंशत् सर्गः। आपदामपहर्तारं दातारं सर्वसम्पदां लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहं धर्मात्मा सत्यसन्धश्च रामो दासरथिर्यदि पौरुषे चाप्रतिद्वन्द्वः शरण्यहि रावणीं श्रीरघुनन्दनपरब्रह्मणे नमः। Jambumali wanted to show his power. and threw a few arrows towards the face, shoulders, chest, and hands. And Hanuman thought, what is this guy doing, you know, without any word? He started showing the arrows, and then he picked up a stone and wanted to throw it on the Jambumali. But before that, Jambumali broke it down to pieces by his arrows. Hanuman took another tree, and that also was teared to pieces. And then his old, the ayudham was there, the big pillar, steel pillar. And he took that pillar, rotated, and just throw it towards Jambumali. That's it. Jambumali, no more head, nor hands, nor chariot, nor horses, nothing is seen except some paste on the ground. Ravana was terribly moved, and he instructed the children, the sons of his minister, 7 by number, and he instructed all of those 7 to go carefully and deal with that monster. They are now getting prepared.